एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभाया ह्यस्तनोपवेशे तद विक्रम वर्षीय सूचना प्रविधि सञ्जाल सुरक्षा विधेयकम् औद्योगिक सम्पद सम्बद्धम् विधेयकम् च प्रस्तुते स्तः। उपवेशे संचार मन्त्रिण पक्षत सांजालिक सुरक्षा विधेयकम् प्रस्तुवन् उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेल, वैद्युत व्यवसायाधिनियमम् समय सापेक्षतया परिमार्ज्य नूतन प्रविधेः अनुरूपम् सम्पादयितुम्, सांजालिक सुरक्षा सम्बद्ध व्यवस्थाम् अतिरिक्तम् वर्धयितुम् च विधेयकमिदम् निर्मितमस्तीति समस्पष्टयत्। एवमेव उपवेशे औद्योगिक सम्पद सम्बद्धम् विधेयकम् प्रस्तुवन् उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी औद्योगिक सम्पद पञ्जीकरणाय नियमनाय प्रवर्धनाय अभिलेखस्य व्यवस्थितकरणाय च वर्तमान विधेयक संशोधनार्थम् एकीकरणार्थम् च विधेयकमिदम् प्रस्तुतमस्तीति समस्पष्टयत्। तत्पूर्वम् प्रतिनिधिसभायाः ह्यस्तनोपवेशे विपक्षीदलानाम् सांसदैः प्रधानमन्त्रिणा केपी शर्मा ओलिना सहभागीभूते स्पेनदेशीय सम्मेलने भागम् ग्रहीतुम् तत्र गताः कतिपय सहभागिनः नेपालम् न प्रत्यावृताः सन्तीति विषये सदने उत्तरम् प्रदातव्यमिति याचनाम् विहितवन्तः। उपवेशे सांसदाः स्वस्य सुरक्षण स्वास्थ्य सुरक्षण कोषस्य सेवाम् सहजाम् विधातुम् सर्वेषु जनेषु प्रापयितुम् जुम्ला जनपदस्य पेयजल कार्यालयम् न निरस्तीकर्तुम् कर्णाली प्रदेशस्य ग्रामीण वसतिषु विद्यमानायाः पेयजल समस्यायाः समाधानाय प्रभावकारी कार्यम् चालयितुम् च सर्वकारस्य ध्यानाकर्षणम् व्यदधुः। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। गृहमन्त्री रमेश लेखकः भासते विपद संकट न्यूनीकरणाय सर्वकारः सर्वतोभावेन सन्नद्धो वर्तते। राष्ट्रिय सभान्तर्गतायाः सार्वजनिक नीति प्रत्यायोजित विधायन समितेः उपवेशे ह्य गृहमन्त्री लेखकः विपद संकट न्यूनीकरणाय पूर्व सूचना प्रणाली अधिकम् महत्वम् विभर्तित्यतः एतदर्थम् पूर्वकार्य सम्बद्धाम् सूचनाम् प्रापयितुम् सूचना प्रणालीम् व्यवस्थिताम् विधातुम् च सर्वकारस्य प्रयत्नो वर्तते इति असूचयत्। अस्यैव आषाढस्य चतुर्विंशे दिवसे रसुवा जनपदस्य भोटेकोशी नद्याम् दूरापन्ने जलविप्लवे निपत्य विलुप्तानाम् जनानाम् अन्वेषण कार्यम् जायमानमस्ति इति च मन्त्री लेखकः तदवसरे अज्ञापयत्। उपवेशे राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी प्रमुखः स्थपतिः निदेश दिनेश प्रसाद भट्ट रसुवा जनपदस्य भोटेकोशी नद्याम् दूरापन्नेन भूस्खलनेन विहिताया क्षतेः विधीयमानानाम् कार्याणाम् च विषयेषु च असूचयत्। उपवेशे सांसदाः सर्वकारेण विपद संकट न्यूनीकर्तुम् सर्वाण्यपि पूर्वकार्याणि विधातुम् पूर्वसूचना प्रणालीम् सर्वत्र प्रापयितुम् अधिकाम् व्यवस्थिताम् विधातुम् विपद न्यूनीकरणार्थम् प्रशिक्षणम् प्रदातुम् च आवश्यकता स्थिति धारणाम् व्यक्तवन्तः। सांसदाः राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य भूमिकाम् प्रभावपूर्णाम् विधातुम् बलम् ददति। राष्ट्रिय सभान्तर्गतायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे सांसदाः वित्तीय संघीयतायाः कृते आयोगम् सक्रियम् विधातुम् प्राकृतिक स्रोतसाम् राजस्वबण्टनम् समन्यायिकम् विधातुम् च आवश्यक विधेः निर्माणार्थम् बदम् प्रादोः। वित्तीय संघीयतायाः क्रियान्वयन सन्दर्भे राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगेन विहितानाम् कार्याणाम् आयोगस्य परामर्शनानाम् क्रियान्वयनस्य अवस्थायाश्च विषयेषु समित्या आयोगस्य पदाधिकारिभिः सह विमृष्टम् वर्तते। समितेः सभापति सोनाम गिल्जेन शेर्पा प्राकृतिक स्रोतसाम् संरक्षणम् व्यवस्थापनम् च विधातुम् आयोगेन ध्यानम् देयम् इत्यत्र बलम् प्रादात्। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली निगदति दलाभ्यन्तरे एकताम् सुदृढीकृत्य दृढसंकल्पेन अग्रे वर्धितम् सद् एमाले दलम् न केनापि पराजेतुम् शक्यते। एमाले दलीय जनपदीय कार्यकर्त मेलनम पूर्वे द्युहु झापा मण्डले सम्बोधयन् प्रधानमन्त्री ओली दले दीर्घकालम स्थित्वा विभिन्न दायित्वम प्रूढवद्भिः लाभम गृहीतवद्भिश्च नेतृभिः विगत समये दल विभाजनस्य कार्यम कृतम दलम समापयितुम षड्यन्त्रम च विहितम तथापि कार्यकर्तृभिः जनतया च एमाले दलम संरक्ष्य पुनः राष्ट्रिय शक्तेः रूपेण दलम रूपान्तरितमस्तीति प्रावोचत। तदवधौ अध्यक्ष ओली दलाभ्यन्तरात् बहितश्च जायमानानि षड्यन्त्राणि प्रतिकृत्य निर्भयेन उचितनीतेः नेतृत्वस्य च पक्षे प्रवर्तितुम् कार्यकर्तॄन् अन्वरुणत। प्रधानमन्त्री केपी शर्मा ओली झापा जनपदस्य दमक नगरपालिका वर्तिनः मदन डाँगी ताराबारी डिपु मार्गस्य स्तरोन्नतेः आयोजनाया ह्य उद्घाटनम् विहितवान। विश्वकोशस्य सहयोगेन नगरपालिकायाः गौरवस्य आयोजनायाः रूपेण विद्यमानः एष मार्गः आराष्टम् प्रचितानाम् सप्तदश मार्गाणाम् मध्ये एकः मार्गो वर्तते। तदवसरे प्रधानमन्त्री ओली दमक नगरपालिकायाः बेलडाँगी स्थाने रंगशाला निर्माणस्य घोषणाम् विहितवान। स्वास्थ्य सुरक्षण समित्या आराष्टम चतुरशीत्यधिक शतत्रयम् स्वास्थ्य संस्थाः प्रथम सेवाबिन्दुत्वेन निर्धारिताः सन्ति। आगामिनः श्रावण मासस्य प्रथम दिवसात् आराष्टम चतुरशीत्यधिक त्रिशतम् स्वास्थ्य संस्थाः प्रथम सेवाबिन्दुत्वेन निर्धारिताः सन्तीति समितेः जनस्वास्थ्याधिकृतः विवेक विकेश मल्लः अज्ञापयत। स्वास्थ्य सुरक्षण समित्या निर्धारितान् प्रथम सेवा विन्दुन क्रियान्वेतुम सर्वे स्थानीय सर्वकाराः आवश्यक विवरणं प्रेषयितुम निर्दिष्टाश्च वर्तन्ते। काष्ठमण्डप महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते पञ्चविंशतेः अब्जानाम् षड्सप्ततेः कोटीनाम् त्रिचत्वारिंशतो लक्षाणाम् च रूप्यकाणाम् आयव्ययकम् प्रस्तुतम् वर्तते। महानगरपालिकायाः उपप्रमुखः सुनीता डंगोलः ह्य काष्ठमण्डप महानगरपालिकायाः नगरसभायाः सप्तदशे अधिवेशने आगामिनः आर्थिक वर्षस्य कृते पञ्चविंशतेः अब्जानाम् षट्सप्ततेः कोटीनाम् त्रिचत्वारिंशतो लक्षाणाम् च आयव्ययकम् प्रस्तोत। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः अतः परम् अर्बुद रोगस्य उपचारे प्रयुज्यमानम् औषधम् निःशुल्कम् प्राप्यते इति सूचयति। नेपाले अप्राप्तेः कारणेन उपचाराय विदेश गमनस्य बाध्यकारी समस्याम् न्यूनीकर्तुम् मन्त्रिणः पौडेलस्य विशेष प्रयत्नेन अन्तर्राष्ट्रिय च्यारिटी डाइरेक्ट रिफिल संस्थया सप्तत्रिंशत प्रकाराणाम् औषधानाम् सहयोगस्य प्रतिबद्धताया अनुसारेण प्रथमवारम् औषधम् ह्य नेपालम् प्राप्तम् वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलः निगदति भानुभक्तः न केवलम् नेपाली भाषायाः एव अपितु मातृभाषायाः प्रेमकर्तृणाम् संयुक्त कविरस्ति। पूर्वेद्यो आदिकवे भानुभक्त आचार्यस्य द्वादशोत्तर द्विशततम जन्म जयन्त्याः अवसरे शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते विशेष समारोहे राष्ट्रपति पौडेलः एवम् अगदत् इति समाचाराः।